स गतःक्षितिमुष्णशोणितार्द्र खुरदंष्ट्राग्रनिपातदारिताश्म अशुभिः क्षणमीक्षितेन्द्रसूनुः विहिता मनुषगूर्ध्वनिर्निरासे स इति क्षितिङ्गतः क्षितौ पतितः उष्णेन प्रत्यग्रत्वात् शोणितेन आर्द्रः प्लुतः खुराणां दंष्ट्रयोश्च अग्राणां निपातेन आघातेन दारिताश्मा पाटितपाषाणः किञ्च क्षणम् ईक्षितेन्द्रसूनुः स्वार्थविघातरोषात् इति भावः अत एव विहितः कृतः अमर्षगुरुः क्रोधोद्धतः ध्वनिः क्रन्दितं येन सह तथा उक्तः सः वराहः अशुभिः प्राणैः निरासे निरासितः त्यक्त इत्यर्थः अस्य तेः कर्मणि लिटु इयञ्च स्वभावोक्तिः स्फुटपौरुषमापपातपार्थः तमधप्राज्यशरःशरं जिगृक्षुः न तथा कृतवेदिनां करिष्यन् प्रियतामेति यथा कृतावदानः स्फुटेति अथ वराहपातानन्तरं पार्थः अर्जुनः प्राज्यशरः प्रभूतशरः सन्नपि इत्यर्थः प्रभूतं प्रचरं प्राज्यम् इत्यमरः स्फुटपौरुषं व्यक्तविक्रमं वराहभेदिनं शरं जिगृक्षुः ग्रहीतुम् इच्छुः ग्रहेः सन्नन्तात् उप्रत्ययः आपपात आधावति स्म कृतज्ञतया शरग्रहणं न तु लोभात् इत्यर्थः ननु अन्येऽपि उपकर्तार एव किमिति अत्रैव आदरः तस्य इच्छत आह कृतवेदिनां कृतज्ञानां कृतावदानः कृतकर्मा अवदानं कर्मवृत्तम् इत्यमरः यथा प्रियतामेति तथा करिष्यन् उपकरिष्यन् न प्रियतामेति कृतकरिष्यमाणयोः कृतं बलीयः इति न्यायात् इति भावः अथ युग्मेनाः उपकार इवासतिप्रयुक्तः स्थितिमप्राप्य मृगे गतः प्रणाशम् कुतशक्तिरधो मुखो गुरुत्वात् जनितव्रीड इवात्मपौरुषेण उपकार इति असति नीचे प्रयुक्तः उपकार इव मृगे स्थितिम् अप्राप्य प्रणाशम् अदर्शनं गतः इत्युपमा यथा कृतशक्तिः कृतपौरुषः गुरुत्वात्तु लोहभारात्तु महत्वाच्च अधोमुखः नम्रमुखः अत एव आत्मपौरुषेण जनितव्रीडैव स्थितः इत्युत्प्रेक्षा स समुद्धरता विचिञ्चतेन स्वरुचं कीर्तिमिवोत्तमां दधानः अनुयुक्त इव स्ववार्तमुच्चैः परिरेभेऽनुभृशं विलोचनाभ्यां स इति उत्तमां स्वरुचं स्वकान्तिं कीर्तिमिव दधान इत्युत्प्रेक्षा किञ्च विचिञ्च सर्वदा ग्राह्यः अयम् इति विमृश्य समुद्धरता तेन अर्जुनेन उच्चैः स्ववार्तं स्वपाटवं वार्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम् इति यादवः अनुयुक्तः पृष्टैव स्थितः इत्युत्प्रेक्षा आदरात्तु तथा प्रतीयते इत्यर्थः प्रश्नोऽनुयोगः पृच्छा च इत्यमरः सः बाणः विलोचनाभ्यां नयनाभ्यां कृत्वा भृशं परिरेभेनु आलिङ्गितः किम् इत्युत्प्रेक्ष तेन अत्यादरेण दृष्टः इत्यर्थः तत्र कार्मकभृतं महाभुजः पश्यति स्म सहसा वनेचरं सन्निकाशयितुमग्रतस्थितं शासनं कुसुमचापविद्विषः तत्रेति तत्र प्रदेशे महाभुजः अर्जुनः कुसुमचापविद्विषः स्मरारेः शासनं வக்ஷ்யமானம் ஆதேசம் சன்னிகாசயித்தும் சன்னிவேசயித்தும் நிவேதயித்தும் இது யாவத் அக்ரதஹாஸ்திதம் கார்மகபுரதம் வனேச்சரம் சஹசா சடிதி பசியதி ஸ்ம இதஃப் பிரபுதி ரதோத்ததாவ்ருத்தம் ராநராவிவரதோத்ததாலகௌ இது லட்சணாத் சப்ரயுஜ்ய தனயே மஹீபதே ஆத்மஜாதி சதுசீம் கிலானதிம் சாந்தபூர்வம் அபிநீதி ஹேதுகம் வக்துமித்தமுபசக்ரமே வசஹ சைதி சஹா வனேச்சரஹ மஹீபதே தனயே ராஜபுத்ரே அர்ஜுனே ஆத்மஜாதி சதுசீம் கிராத்தஜாத்யனரூபாம் கிள கிலேதி ஜாதேஹ அலீகதாம் தரிசயதி யதஹ பரமார்த்ததஹ பிரமதயேவ சஹ ஆனதிம் பிரணதிம் பிரயுஜ்ய சாந்தபூர்வம் சாமபூர்வகம் சாமசாந்தமுபேசமே இத்யமரஹ அபிநீதி ஹேதுகம் பிரியயுக்தி ஹேதுகம் வசஹ இத்தம் வக்ஷ்யமான பிரகாரேண வக்தும் உபசக்ரமே உஜ்ஜுக்தவான் தத்ர தாவது சதுர்பிஹி சாந்தமாஹ சாந்ததா விநய யோகி மானசம் பூரிதாம விமலம் தபஸ்ருதம் ப்ராஹதேனு சதுசீ திவௌகசாம் ஆன்வவாயம் அவதாதமாக்ருதிஹி சாந்ததேதி சாந்ததா பஹிஹி அனௌத்தத்யம் தே தவ விநய யோகி அனௌத்தத்ய யுக்தம் மானசம் கர்ம பிராஹனு ப்ரூதே கலு ததா பூரி பஹு தாம தேஜா யஸ்மின் தத் தபஹ கர்த்தும் விமலம் சம்பிரதாய சுத்தம் ஸ்ருதம் பிராஹ கிஞ்ச ஜௌஹு திவம் ஓகஹ ஏஷாம் தேஷாம் திவௌகசாம் தேவானாம் புருஷோதராதித்வாத் சாது திவம் ஸ்வர்கேந்தரிக்ஷே ச இதி விஸ்வஹ சதுசீ துல்யா ஆக்ருதிஹி மூர்த்திஹி அவதாதம் சுத்தம் ஆன்வவாயம் வம்சம் ப்ராஹ வம்சோன்வவாயஸ் சந்தானஹ இத்யமரஹ சாந்த்யாதிபிஹி லிங்கைஹி வினயாதயஹ அனுமீயந்தே அன்யதா ததசம்பவாத் இதி பாவஹ தீபித்தமனுபாவசம்பதா கௌரவேண லகயன் மஹீபிருதஹ ராஜசே முனிதபீஹ காரயன் ஆதிபத்யமிவ சாதமன்யவம் தீபித இதி முனிதபி ஐஸ்வர்யரஹிதோபி இத்யர்த்தஹ அனுபாவசம்பதா பிரபாவாதிசயேன தீபிதஹ பிரகாசிதஹ அனுபாவ பிரபாவேச இத்யமரஹ கௌரவேண மகத்தயா மஹீபிருதஹ ராஜ்ஞஹ லகயன் லகூகுர்வன் த்வம் இஹ அத்ரௌ சதமன்யோரிதம் சாதமன்யவம் ஐந்திரம் தஸ்யேதம் இச்சன் பிரச்சயஹ சதமன்யுஹ திவஸ்பதிஹ இச்சமரஹ அதிபதே கர்ம ஆதிபத்யம் த்ரைலோக்கியரட்சாதிகாரம் பிராமணாதித்வாத் ஷை பிரச்சய காரயன்யவா இந்திரேண இது சேஷ ராஜசே தஸ்யாபி உபஜீவ்ய இது பிரதீயசே ஸ்வமஹிம்னா இத்யர்த்தஹ தாபசோபி விபுதாமுபேயிவான் ஆஸ்பதம் தமசி சர்வசம்பதாம் த்ருஸ்யதேஹி பவதோ விநாஜனைஹி அன்விதஸ்ய சசிவைரிவத்யுதிஹி தாபஸ இதி விபுதாம் பிரபாவம் உபேயிவான் உபகதஹ அதயேவ தாபசோபி த்வம் சர்வசம்பதாம் ஆஸ்பதம் ஸ்தானம் அசி ஆஸ்பதம் பிரதிஷ்டாயாம் இதி நிபாதஹ விபுதாமேவ சமர்த்தயதே ஹி யஸ்மாத் பவதஹ தவ ஜனைர் வினாபி ஏகாகினோபி இத்யர்த்தஹ சசிவைஹி அன்விதஸ்யேவ அமாத்யாதி யுக்தஸ்யேவ த்யுதிஹி தேஜஹ த்ருஸ்யதே அதஹ சர்வசம்பதாஸ்பதத்வம் யுக்தம் இத்யர்த்தஹ. విస్మయ కైవ వాజయశ్రియా నైవ ముక్తిరపితే దవీయసీ. ఈప్సితస్య న భవేదుపాశ్రయ కస్య నిర్జిత రజస్తమో గుణ. విస్మయ ఇతి కించ జయశ్రియా హేతునా ప్రాప్తయాపి ఇతి శేష కైవ వా విస్మయ కిమాశ్చర్యం న కశ్చిత్ ఇత్యర్థః. విస్మయోద్భుతమాశ్చర్యం చిత్రం ఇచ్చమరః. అతః ముక్తిరపి తే తవ దవీయసీ దూరతరా దుర్లభా నభవత్యేవ. స్థూలదూర ఇత్యాదినా యణాది పరలోపః పూర్వగుణశ్చ తథా హి నిర్జితౌ రజస్తమసీ ఏవ గుణౌ ఏన సహ భవత్సదృశః పురుషః కస్య ఈప్సితస్య వాంఛితస్య ఉపాశ్రయః ఆస్పదం న భవేత్ ఇత్యర్థః. అథ ఆగమన ప్రయోజనం ఉపాలంభముఖేన ఆహ. హేపయన్నహిమ తేజసం ద్విషా సత్తమిత్తముపన్న పౌరుషః హర్తుమర్హసి వరాహ భేదినం నైనమస్మదధిపస్య సాయకం. హ్రేపయన్నితి త్విషా తేజస అహిమతేజసం ఉష్ణతేజసం. హ్రేపయన్ లజ్జయన్ ఉపపన్న పౌరుష సంభావిత పరాక్రమ సహ ప్రసిద్ధ త్వం వరాహభేదినం కృతోపకారం ఇత్యర్థః. ఏనం త్వత్కరగతం అస్మదధిపస్య సాయకం శరం ఇత్థం సాహసేన హర్తుం నార్హసి అనర్హత్వమేవ ఆహా. స్మర్యతే తనుభృతాం సనాతనం న్యాయమాచరితముత్తమైః నృభిః. త్వం సతే యది భవాదృశస్తతః కః ప్రయాతు వదతేన వర్త్మనా. స్మర్యత ఇతి ఉత్తమైః నృభిః సత్పురుషైః మన్వాదిభిః తనుభృతాం శరీరిణాం సనాతనం నిత్యం న్యాయం న్యాయాదనపేతం ఆచరితం ఆచారః స్మర్యతే కర్తవ్యతయా ఇతి శేషః నతు అనాచారః ఇత్యర్థః. అథాపి అనాచారేణ దోషమాహ. ధ్వంసత ఇతి భవానివ దృశ్యతే భవాదృశః తతః సదాచారాత్తు ధ్వంసతే భ్రశ్యతే యది తదా తేన వర్త్మనా న్యాయమార్గేణ కః ప్రయాతు గచ్చతు వద కథయ. నకోపి ఇత్యర్థః. తథా చ సన్మార్గేవ శీలం కుర్యాత్ ఇతి భావః. ఆకుమారముపదేష్టుమిచ్చవ సన్నివృత్తిమపధాన్ మహాపదః. యోగశక్తిచిత జన్మ మృత్యవ శీలయంతి యతయః సుశీలతాం. ఆకుమారమితి కించ యోగశక్త్యా ఆత్మజ్ఞానమహిమ్నా జితౌ జన్మమృత్యు యైహి తే యతయః యోగినః. కుమారేభ్యః ఆకుమారం కుమారాత్ ఆరభ్య ఇత్యర్థః. ఆంగ్ మర్యాదావివిధ్యోః ఇత్యవ్యయీ భావః. మహత్యః ఆపదః యస్మిన్ తస్మాత్ మహాపదః. మహానర్థహేతోః ఇత్యర్థః. అపధాత్తు అమార్గాత్తు పదో విభాషా ఇతి నిషేధ వికల్పాత్ సమాసాంతః. అపధం నపుంసకం సన్నివృత్తిం అపగమం ఉపదేష్టుం ఇచ్చవః సంతః. సుశీలతాం సద్వృత్తతాం శీలం స్వభావే సద్వృత్తే ఇత్యమరః. శీలయంతి అభ్యస్యంతి అతః న త్యాజ్యం శీలమిత్యర్థః. అకేవలం సౌశీల్యాత్ అనర్థనివృత్తిః కింతు అర్థప్రాప్తిరపి ఇత్యాహ. తిష్టతాం తపసి పుణ్యమాసజన్ సంపదోనుగుణయన్ సుఖైషిణాం. యోగినాం పరిణమన్ విముక్తయే కేన నాస్తు వినయః సతాం ప్రియః. తిష్టతామితి తపసి తిష్టతాం తపోనిష్టానాం ధర్మార్థినామిత్యర్థః. పుణ్యం ధర్మం ఆసజన్ సంపాదయన్ స్యాద్ధర్మమస్త్రియాం పుణ్యశ్రేయసీ సుకృతం వృషః ఇత్యమరః. सुखैषिणां सुखार्थिनां संपदः सुखसाधनभूतान् अर्थान् अनुगुणयन् अनुकूलयन् अर्थकामयोरपि हेतुभूतः इत्यर्थः तथा योगिनां विमुक्तये अपवर्गाय परिणमन् सम्पद्यमानः विनयः सौशील्यं केन हेतुना सतां प्रियो नास्तु संभावनायां लोट् सर्वधा विनय एव चतुर्वर्गसाधनम् इत्यर्थः अतः त्वया न अस्मत्स्वामिसरचौर्यं कार्यम् इति तात्पर्यम् अथवा किं भवादृशेषु अन्यसंभावनया यतः भ्रान्तिरपि सम्भाव्यते इति मृदूक्तिम् अवलम्ब्य आह नूनमत्र भवतस्य राकृतिं सर्वधायमनुयाति सायकः सोऽयमिच्छनुपपन्नसंशयः कारितस्त्वमपधेपदं यया नूनमिति अयम् अस्मदीयः सायकः अत्र भवतः पूज्यस्य इत्यर्थः पूज्यस्तत्र भवान् अत्र भवान् इति सज्जनः इतराभ्योऽपि दृश्यन्ते इति सार्वविभक्तिकः तसिल् प्रत्ययः सुप्सुपा इति समासः शराकृतिं सर्वधा रूपेण लेखादिना सर्वप्रकारेण अनुयाति अनुसरति अत्यन्तम् अनुकरोति इत्यर्थः नूनम् इति वितर्के यया आकृत्या कर्त्या त्वम् अनुपपन्नसंशयः अत्यन्तसादृश्यात्तु अनुत्पन्नस्वान्यदीयत्वसन्देहः सन् सोऽयमिति यः स्वकीयः स एव अयमिति भ्राञ्चुत्पत्त्या एव इति शेषः अपधे अमार्गे शरापहरणरूपे पदं कारितः निधापितः इत्यर्थः हुक्रोरन्यतरस्याम् इत्यणि कर्तुः कर्मता न्यन्ते कर्तृश्च कर्मणः इति तत्रैव अभीते कर्मणि कृतः